प्रातस्मरामि भवभीतिमहार्ति शान्त्यै नारायणं गरुडवाहनमञ्जनाभम् ग्राहाभिभूतमदवारणमुक्तिहेतुम् चक्रायुधं तरुणवारिजपत्रनेत्रम् प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंसः नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य प्रातर्भजामि भजतामभयं करन्तम् प्राक् सर्वजन्मकृतपापभयापनुत्यै योग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर शोकप्रणाशनकरो धृतशङ्खचक्रः श्लोकत्रयमिदं पुण्यं प्रातरुत्थाय यः पठेत् लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः।